एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। प्रधानमन्त्री केपी शर्मा ओली निगदति लोकतन्त्रस्य प्राप्त्यै कठिन संघर्षम् विहितवन्तः पूर्वनेतारः नेपाली राजनीतेः संयुक्त मार्गदर्शकाः वर्तन्ते। संयुक्त संस्कृति पर्यटन नागरिक उड्डयन मन्त्रालय ह्य बालवाटार वर्तिनी प्रधानमन्त्री निवासे आयोजिते पुरस्कार वितरण कार्यक्रमे प्रधानमन्त्री ओली प्रावोचत् पूर्व नेतृभिः प्रदर्शितात् संघर्षस्य मार्गात् देशे लोकतन्त्रस्य प्राप्तिः सम्भूतास्ति, सम्प्रति जनजीवनम् सहजम् च सम्भूतम् वर्तते। प्रधानमन्त्री ओली वर्तमान सन्तत्यै अधिनायकवादस्य शासनम् कीदृशम् भवतीति ज्ञानाभावात् कस्मिंश्चित् विषये असन्तुष्टे सति अधिनायकवादी इत्युक्त्वा टिप्पणी विधीयते इति उदैरयत्। प्रधानमन्त्री ओली राजनीतिक परिवर्तनस्य कृते कांग्रेसदलेन वामपन्थी दलैश्च कठिन परिस्थिते सहनम् कृत्वा एकीभूय बलिदानीपूर्ण संघर्षः विहितः, तत्र संघर्षे बीपी कोइराला विदस्य प्रेरणा आधारोऽस्ति च चयन्। बीपी पुष्पलाल प्रवृत्तयः पूर्वनेतारः सम्प्रति न केवलं कस्यापि एकस्य दलस्य विशेष नेतृणाम् अपेक्षयापि देशस्यैव नेतारः सन्तीति प्रत्यपादयत्। कार्यक्रमे संस्कृति पर्यटन नागरिक उड्डयन मन्त्री बद्री प्रसाद पाण्डे बहुकालात् कांग्रेस एमाले दलयो मध्ये सहकार्यम् प्रतिस्पर्धा च सैव अग्रे वर्धिते स्त इति चर्चयन् देशम् अग्रे वर्धयितुम् सम्प्रति विपुल दलद्वयम् मिलित्वा सर्वकार संघटितोऽस्ति इति समस्पष्टयत्। तदवसरे प्रधानमन्त्रिणा ओलिना गत विक्रमवर्षीय बीपी कोइराला राष्ट्रिय पुरस्कारेण स्रष्टारः नयन सिंह कडायत, मीना सुब्बा, तिलविक्रम नेवार नेवाङ, बैरागी काइला इत्युपनामा भुवन ढुङ्गना कोइराला च सम्मानिताः आसन्। राष्ट्रिय सभायाय ह्यस्तनोपवेशेन गत विक्रमवर्षीयम् पर्यटन विधेयकम् प्रकरणगत विमर्शनाय विधायन व्यवस्थापन समितौ प्रेषितम् वर्तते। संस्कृति पर्यटन नागरिक उड्डयन मन्त्रिणा बद्रीप्रसाद पाण्डे विधेयेन प्रस्तुतम् गत विक्रमवर्षीयम् पर्यटन विधेयकम् सभया सर्वसम्मत्या प्रकरणगत विमर्शनाय समितौ प्रेषितम् वर्तते। उपवेशे सांसदानाम् प्रश्नान् उत्तरयन् विधि न्याय संसदीय विषय मन्त्री अजय कुमार चौरसिया संविधानेन प्रत्याभूतानाम् मौलिकाधिकाराणाम् क्रियान्वयनाय सर्वकारः प्रतिबद्धोऽस्तीत्यतः तत्र आवश्यकम् विधिम् निर्मातुम् मन्त्रालयः क्रियाशीलो वर्तते इति समस्पष्टयत्। उपवेशे सांसदाः विविधेषु सामयिक विषयेषु सर्वकारस्य ध्यानाकर्षणम् विहितवन्तः आसन्। राष्ट्रियसभायाः अपरोपवेश परश्वः बुधवासरे दिवासपादैकवादने वस्ता। नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा निगदति कृत्रिम बौद्धिकता न केवलं भविष्यस्य स्वप्नः प्रत्युत वर्तमानस्य आवश्यकतापि वर्तते। नेपाली कांग्रेस दलस्य विज्ञान सूचना प्रविधि विभागेन दल केन्द्रीय कार्यालये ह्य आयोजिते नेपालस्य विकासाय कृत्रिम बौद्धिकतायाः समग्रम् विश्लेषणम् इति कार्यक्रमे सभापति देउवा सूचना प्रविधिना जनताभ्य शीघ्रम् सरल रूपेण पारदर्शी रूपेण च सेवाम् प्रदातुम् उल्लेखनीय भूमिका निर्व्यूढास्तीति अगदत्। सभापति देउवा कृत्रिम बौद्धिकतायाः प्रयोगम् शिक्षा स्वास्थ्य कृषि पूर्वाधार वृत्त्युपार्जन सार्वजनिक सेवा प्रवाह प्रवृत्तिषु विविधेषु विषयेषु दायित्ववाहितया प्रभावकारितया च विधातुम् आवश्यकतास्तीति उदैरयत्। नेपाल चीन देशयोः प्रवेशबिन्दोः रस्वागढ़ी स्थानस्य मैत्री सेतोः पुनर्निर्माण कार्यम् प्रारब्धम् वर्तते। गताषाढमासस्य चतुर्विंशे दिवसे ल्हेन्देखोला नद्याम् दूरापन्नेन जलविप्लवेन 10 मीटरमितः विस्तृतः 100 मीटरपरिमितः दूरीयाश्च सेतुः क्षतिग्रस्तः आसीत्। चीन सर्वकारेण सेतोः पुनर्निर्माण कार्यम् प्रारब्धमस्तीति रस्वा जनपद प्रमुख जनपदाधिकारी अर्जुन पौडेलः असूचयत्। नेपाल चीन देशयो आवागमनस्य व्यापारस्य च अवरोधावस्थायाम् प्रथमचरणे चीन सर्वकारेण बेलीब्रिज लौह सेतोः निर्माण कार्यम् प्रारब्धमस्तीति प्रमुख जनपदाधिकारी पौडेलः असूचयत्। हुम्ला जनपदस्य चंखेली ग्रामपालिकाया लोती खोला नद्याम हुम्ला मुगु जनपदयोः योजकस्य लघुसेतोः निर्माण कार्यम् सम्पन्नमस्ति। तत्र कोटि चतुष्टयस्य 98 लक्षाणाम् च रूप्यकाणाम् व्ययेन लघुसेतोः निर्माण कार्यम् सम्पन्नमस्तीति पूर्वाधार विकास कार्यालयस्य प्रमुख स्थपतिः नरेश राज जैशी असूचयत। आसन्न पञ्चानाम् मासानाम् अवधौ निर्मितस्य लघुसेतोः दूरी 42 मीटरमिता अस्ति, यत्र 30 सेतोः आधारोपकरणानि संयोजितानि वर्तन्ते। प्रतिनिधि सभा अन्तर्गताया शिक्षा स्वास्थ्य सूचना प्रविधि समित्या मीडिया काउन्सिल विधेयकम् आधृत्य विज्ञै सह परामृष्टमस्ति। समिते ह्यस्तनोपवेशे सार्वजनिक सेवा प्रसारण नेपालस्य अध्यक्ष डाक्टर महेन्द्र विष्ट राष्ट्रिय सभया मीडिया काउन्सिल विधेयकम् संचार परिषद विधेयकस्य रूपेण संशोधनम् विधाय प्रेषितमस्ति, परन्तु विधेयकस्य नाम मीडिया काउन्सिल इत्येव विधेयमिति परामृष्टवान्। उपवेशे राष्ट्रिय सूचना आयोगस्य प्रमुख सूचना आयुक्त डाक्टर सुरेश आचार्य वरिष्ठ पत्रकार तारानाथ दाहालश्च विधेयकम् आधृत्य स्वकीयां धारणां व्यक्तवन्तौ। प्रतिनिधि सभा अन्तर्गताया कृषि सहकारी प्राकृतिक स्रोत समितौ भूमि सम्बद्धान कांश्चित नेपालादि नियमान संशोधयितुम् निर्मितम् एतद् विक्रम वर्षीयम् विधेयकम् आधृत्य संशोधन कर्तृभिः सांसदैः सह विमृष्टम् वर्तते। समिते ह्यस्तनोपवेशे संशोधन कर्तृभिः सांसदैः प्रस्तावितस्य विधेयकस्य प्रावधानैः भूमिहीनानाम् जनानाम् अपेक्षया गृहभूमि क्रय विक्रय व्यवसायिनाम् लाभो भविष्यति, इत्यतः विधेयकस्य संशोधनम् विधायैव अग्रे गन्तुम् उचितम् भवतीति धारणा व्यक्तासीत्। नेकपा माओवादी केन्द्रस्य अध्यक्षस्य पुष्पकमल दाहाल प्रचण्डस्य नेकपा एकीकृत समाजवादी दलस्य अध्यक्षस्य माधव कुमार नेपालस्य च मध्ये मेलवार्ता सम्भूतास्ति। अध्यक्षस्य प्रचण्डस्य निवासे सम्भूते अनयोर्मेलने देशस्य पश्चात्तन विकसितस्य राजनीतिक घटनाक्रमस्य विषये विमृष्टम् वर्तते। मेलने वामपन्थीनाम् ध्रुवीकरणस्य विषये चर्चा, राष्ट्रियान्तर्राष्ट्रिय राजनीतिक परिस्थितेर्विषये समीक्षा, वामशक्तिषु एकताय विहितस्य प्रयासस्य, अन्तर्राष्ट्रिय स्तरे शक्तिराष्ट्रेषु सम्भूतस्य युद्धस्य, तेन सृष्टस्य प्रभावस्य च सर्वकारस्य कार्यशैल्याश्च विषयेषु विमर्शनम् सम्भूतमस्तीति एकीकृत समाजवादी दलस्य स्थायी समिति सदस्य आलोक रायमाझी असूचयत्। पर्सा जनपद विपद व्यवस्थापन समित्या जनपदे शुष्कताया कारणेन धान्य कृषौ प्राप्त क्षतेः कृषकेभ्य क्षतिपूर्तिम् दातुम् निर्णीतम् वर्धते। पर्सा जनपदे पश्चात्तन समये जलस्य अभावेन सृष्टस्य संकटस्य समाधानस्य उद्देश्येन उपविष्टेन जनपद विपद व्यवस्थापन समितेः उपवेशेन कृषकेभ्य क्षतिपूर्तिम् दातुम् गण्डक जलकूल्याः व्यवस्थापनम् विधातुम् भूमिगत जलम् आकर्षयितुम् पेयजलस्य समस्यायाः समाधानाय समाधानस्य च अष्टौ महत्वपूर्णाः निर्णयाः विहिताः वर्तन्ते इति समाचाराः।